सर्वेभ्यो नमस्कारः। सिद्धान्तकौमुद्याः अजन्तपुल्लिङ्गप्रकरणे ऊनत्रिंशः भागः, एप्रिल् मासस्य एकादशः दिनाङ्कः। एनाक्षरसमं नायमधिगम्य महेश्वरात् तत्सं व्याकरणं सूक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतमस्मिन्नित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। डिस्कसिङ्ग् अबौट् उकारान्तपुल्लिङ्गास्, वेर् वि सा दट् द जनरल् शब्द इस् Shambhu Shabda, right? So generally, the forms will be Shambhu Harivat iti uktam dikshitaihi. Arthata sarveshu rupeshu harishabdavat, harishabde ya prakriya tadvat rupani bhavanti. It is not the same prakriya, but it is a similar prakriya. It is wherever you have some karya for harishabda, the same sutra would apply, the karya would probably be a bit different. So if it is guna, हरिशब्दस्य गुणत्वेन इकारश्चेत् शम्भुशब्दस्य उकारत्वेन भवति इत्यर्थः। सो कानि, वाट् आर् द कार्यस् विच् आर् स्पेशलि मेण्ट् फार् शम्भुशब्द आर् हरिशब्द इन् एनि केस्, विच् मीन्स् से शम्भुः, यु हाव् शम्भु सुप्रत्यय ऋत्वविसर्ग, दिस् इस् अ जनरल् कार्यं विच् शुड् हेपन् एनिवेर्। शम्भुशब्दस्यैव विशिष्टानि कार्याणि कानि इति चेत्, जसि सम्बुद्धौ च ह्रस्वप्रयुक्तौ गुणः, एन् शम्पू इस् फालोड् बै द जस् प्रत्यय आर् सम्बुद्धि, विच् इस् सम्बोधनप्रथमैकवचन, देर् इस् अ गुण एण्ड् द गुण इस् डिपेण्डेण्ट् आन् ह्रस्व, आन् द वर्ड् प्रातिपदिका बीङ्ग् द ह्रस्वान्तप्रातिपदिका। ओके, कैः काभ्यां सूत्राभ्यां गुणो विधीयते, केन सूत्रेण जसि परे गुणः, केन सूत्रेण सम्बुद्धौ परे गुणः, which is the sutra which gives guna when followed by jas, and which is the one which gives guna when followed by sambuddhi. Kim sutram, anybody? Priya says jasicha and rasasya gunah, which is correct, right? Jasicha, jas pratyaye pare jasicha ittanena gunah, jasi pare rasvantasya gunah sya, and sambuddho pare rasvasya gunah iti sutrena gunah. So the rupa would be shambhu as, shambho as iti gune krute avadeshe rituvisarginyahu shambhavaha atratu he shambho iti rupa. अनन्तरं तायां नाभावः, ता प्रत्यये परे तृतीयैकवचने नाभावः विधीयते, शम्भु आ इत्युच्यते, नाभावे शम्भुना। सूत्रं किम्? शेषोभ्यसखि इत्यनेन घिसंज्ञायाम् इवर्ण वर्णान्तस्य घि इति संज्ञा भवति, घिसंज्ञकस्य घिसंज्ञकात् परस्य टा इत्यस्य न आदेशः क्रियते, आङ्गोनास्त्रियाम् इत्यनेन नाभावः। शम्भुना, शम्भुभ्यां शम्भुभिः इत्यादिषु विशिष्टं कार्यं नास्ति। सो नेक्स्ट् ङित्सु गुणः, ङित् प्रत्ययाः ङे ङसि ङस् ङि इत्येतेषु चतुर्षु प्रत्ययेषु परेषु पुनः गुणो भवति, कथं गुणः? वाट् इस् द सूत्र? हस्तस्य गुणः विल नॉट अप्लाई हियर. हस्तस्य गुणः इज ओनली हस्तस्य गुणः स्यात् संबुद्धौ. वसुजी तो घेर नीति घे है घिसम्यकस्य नीति प्रत्यये परे गुणो भवति. सो व्हेन घी सम्या प्रातिपदिका घिसम्यक प्रातिपदिका इज फॉलोड बाय नित प्रत्ययस ऑलवेज देयर इज अ गुणा बाय घेर नीति. तो शंभो ए शंभवे शंभो अस शंभो अस. हाँ सो ngasi ngasohu गुणे कृते किं भवति पूर्वरूपं भवति. शंभो अस इत्यस्यते शंभोस कृते विसर्गे शंभोः भवति. केन सूत्रेण पूर्वरूपम् other than those who have already answered. Sada Gautam ji? Sorry, I didn't hear you. Ami Purvaha iti Am. Am Pratyaya Ami Purvaha. सत्यम. हाँ हाँ नसिंगसोश्च. हाँ नसिंगसोश्च इति सूत्रेण पूर्वरूपम्. तो नसिंगसोः अतिपरे एङः नसिंगसोः अतिपरे पूर्वरूपम् एकादेशः स्यात् इति सूत्रेण पूर्वरूपे शम्भोः इति रूपम्. शम्भोः शम्भुभ्यां शम्भुत्रः शम्भोः शम्भोः यणादेशः शम्भूनां रसोऽध्यापोनुटिति नुडागमः. ङिप्रत्यये परे किं भवति ङेः औत्वं घेश्च अन्तादेशः अकारः. शम्भु औ इति स्थिते शम्भु इ इति स्थिते ङिप्रत्ययस्य औत् औकारादेशः प्रातिपदिकस्य अकारादेशः. शम्भ औ वृद्धौ शम्भौ सूत्रं रविचन्द्रन् जी अच्छेह अच्छे सूत्रेण अत घे अत पूर्वसूत्रा ङेह औट अनुवर्तते तेन अच्छे अंतादेश शंभौ शंभो शंभुषु. सो दिस इज द जनरल शब्द इन उकारांतस. विशिष्ट शब्द भवति क्रोष्ठ शब्द. उकारांतः पुल्लिंग क्रोष्ठ शब्द श्रृगालवाची. अस्य किं भवति सर्वनामस्थानेषु परेषु त्रिद्भावः. क्रोष्टुशब्दः द्वेधा भवति तुन्नन्तः त्रिजन्तः. इफ् इट् इस् औणादिक तुन्नन्तः तर्हि उकारान्तः. कर्तरि त्रिजन्तश्चेत् ऋकारान्तः इति स्थितिः. तत्र सर्वनामस्थानेषु परेषु त्रिज्वत् भवति. उकारान्तशब्दोऽपि त्रिज्वत् अर्थात् ऋकारान्तवत् भवति इति उच्यते. किं सूत्रम् which is a sutra which is trijvad bhava. Very easy, right? Half the sutra is already here. Hema? त्रिज्वत् क्रोष्टुः. क्रोष्टुः नाम क्रोष्टुशब्दः. त्रिज्वत् भवति त्रिदन्तवद् रूपाणि लभते इत्यर्थः. अर्थात् ऋकारान्तः इन् द फस्ट् फैव् प्रत्ययस् विच् इस् सु औ जस् अम् अण्ड् औ इन्स्टेड् आफ् क्रोष्टु वि यूस् क्रोष्टृ अस् अ ऋकारान्त प्रातिपदिक इस् वाट् इट् सेस्. सो नौ क्रोष्टृ इत्यस्मात् प्रत्यये कृते किं भवति असौ असंबुद्धौ सौ परे अनंग आदेशः क्रोष्ट्र सु इति उच्यते क्रोष्टन सु इति ङिच्च इत्यनेन अन्तादेशः अनंग सूत्रम् Which is the sutra for Anangadesha. Anang Sau does not apply here because it is for Sakhishabda. Sakhishabdasya Anang इत्यादेशः सो दट् इस् द अनुवृत्ति अगेन् अनङ्सौ इत्यनेन अनुवृत्तिः भवति अत्र अनङादेशविधायकं सूत्रं भवति ऋदुशन स्फुरुदं सो नेहसाञ्च ऋत् इत्युक्ते रुदन्तानाम् उशनस्फुरुदम् अनेहस् इत्येतेषां शब्दानां च असम्बुद्धौ सौ परे अनङ् आदेशः सो ऋदुशनस्फुरुदं सो नेहसाञ्च इत्यनेन अनङादेशः किं भवति क्रोष्टन् सु इति भवति अन्येषु सर्वनामस्थानेषु किं भवति सो वि सो दट् द त्रिज्वद्भाव इस् इन् फैव् प्लेसस् सु औ जस् अम् औ इन् सु वि हेव् अनङ् एण्ड् रूपमिकं क्रोष्टन् सु इन् आल् अदर् सर्वनामस्थान वाट् विल् हेपन् गुणः भवति क्रोष्टृ सु इत्युच्यते गुणे कृते क्रोष्टर् क्षम्यतां क्रोष्टस्य न क्रोष्टृ औ इति स्थिते गुणे कृते क्रोष्टर् औ क्रोष्टर् अस् सो इन् सुप्रतया इट् बिकम्स् क्रोष्टन् एव्रिवेर् एल्स् इट् बिकम्स् क्रोष्टर् गुणविधायकं सूत्रं किम् ऋतो ङि सर्वनामस्थानयोः ऋदन्तानां ङि प्रत्यये परे सर्वनामस्थाने परे सो वेन् फालोड् बै इदर् ङि आर् सर्वनामस्थान यु हेव् अ गुण सो इट् सेस् जनरली सर्वनामस्थान बट् इन् सुप्रत्यय सिन्स् वि हव् आलरेडि डन् अनङादेश वि केनाट् डू गुण देन् आर् द अदर् फोर् वि डू गुण इट् बिकम्स् क्रोष्टर् औ क्रोष्टर् अस् क्रोष्टर् अम् एण्ड् अगेन् क्रोष्टर् औ इदानीं किं भवति सर्वेषु सर्वनामस्थानेषु परेषु उपधादीर्घः क्रोष्टन् क्रोष्टर् उभयत्र उपधायाम् अकारः विद्यते अलोन्त्यात् पूर्व उपधा द लेटर् विच् प्रिसीड्स् द लास्ट् लेटर् इस् उपधा सो एव्रिवेर् इट् इस् अकार अकार विल् गेट् दीर्घ सो इट् बिकम्स् क्रोष्टान् आर् क्रोष्टार् केन सूत्रेण उपधादीर्घः Anybody knows the sutra C? Correct. So, Aptrindrit Svasrit Naptrineshtrit Svastrit Kshatrit Hotra Potra Prashastrina. Yes, it is a tongue twister and I took a long time to memorize this sutra. But, So this, it is just a list of words. You have up. There is apshabda, then you have trin, trich, which are both pratyayas. After that, it's a list. But you do need to remember, either you need to remember this list, or you should be familiar with prayogas, to know which words, which rukarantas get dirgha, and which do not. If the word is in this sutra, then only it will have dirgha. Right? Otherwise, you will not have upadha dirgha. Right? Say swasr, it becomes swasarau, swasaraha. Naptr, naptaro, naptaraha, sastra, naptra, neshtra, neshtaro, neshtaraha, etc. If it is not in this list, say pita, pitaro, pitaraha, mata, mataro, mataraha, anything else will go like that. Okay. Yes, Vasuji, you have a question?
Yes,
I am doing everything together. I am doing both the sarvanamasthanas together. So if it is supratyaya, we have anang. If it is the other four, we have guna. So after either anang or guna, commonly we have the upadhadirgha. Exactly. So since this is the revision, I am just going through it together. So in either case you have dirgha, so it becomes kroshtan su. In other cases it becomes kroshtar au, kroshtaras, etc. So there all you don't have a problem. Kroshtar au, kroshtaraha, kroshtaram, kroshtarau. In su you have kroshtan su. Then again two sutras would apply. First the su is deleted by halgyabhya dirgha sitisetraktam hal, and then the nakara also is deleted by nalopah pratiparikantasya. So finally we have kroshta, kroshtarau, kroshtaraha, kroshtaram, kroshtarau. Sarvanamasthaneshu pareshu kridradbhave sati evam rupani. Sambuddhau kim bhavati. You see both kridrad kroshtahu ityasya anangsau. Ridushana spurudamso nehasamcha. Iti sutradvayasya api asambuddhau iti visheshanam vartate. Tena sambuddhau supratyaye pareva kridradbhavaha tatraiva कृजद्भावे सत्येव अनंगः प्रवृत्तिः तस्मात् सम्बुद्धौ कृजद्भावः नास्ति हे क्रोष्टु सु इति स्थिते एस् वि डिस्कस् जस्ट् नौ फोर् शम्भु शब्द असम्बुद्धौ सर्वनामस्थाने परे एव कृजद्भावः इत्युक्तत्वात् ह्रस्वस्य गुणः इत्यनेन गुणे कृते हे क्रोष्टो सु पुनः इङ् ह्रस्वात् सम्बुद्धेः इति सम्बुद्धिलोके हे क्रोष्टो इति क्रोष्टा क्रोष्टारौ क्रोष्टारः हे क्रोष्टो हे क्रोष्टारौ हे क्रोष्टारः क्रोष्टारं क्रोष्टारौ क्रोष्टु इत्यस्मात् शस् प्रत्ययः क्रोष्टु अस् किं भवति अत्र देर् इस् नो कृजद्भाव सर्वनामस्थानसंज्ञा नास्ति सुट् अतु अनपुंसकस्य इत्युक्तत्वात् औट् विवचनपर्यन्तं सर्वनामस्थानसंज्ञा शस् प्रत्ययस्य सर्वनामस्थानसंज्ञा नास्ति अतः त्रिज्वद्भावोऽपि नास्ति किं भवति अत्र क्रोष्टु अस् सुजी सो प्रथमयोः पूर्वस्वर्णः द जनरल थिंग विच हैज बीन हैपनिंग सिंस रामान राइट सो यू हैव क्रोस टू अस प्रथमयोः पूर्वस्वर्णः इत्यनेन पूर्वस्वर्णदीर्घः पूर्वः उकारः तस्य स्वर्णदीर्घः ऊकारः सो क्रोस टूस इति भवति इदानीं सकारस्य स्थाने तस्माच्छसोनः पुंसि इत्यनेन नकारः क्रोष्टून् इति भवति क्रोष्टारौ क्रोष्टारौ क्रोष्टून् सो इदानीं क्रोष्टु टा यु हाव् क्रोष्टु आ वेर् यु शुड् एक्चुलि गेट् लैक् वि हेड् शम्भुना इत्यत्र यथा तथा अत्रापि आङ्गोनास्त्र्याम् इत्यनेन नाभावः स्यात् ततः प्राक् अपरं सूत्रमस्ति विभाषा तृतीयादिषु अचि परत्रयमस्ति सूत्रे विभाषा तृतीयादिषु अचि त्रिज्वत् क्रोष्टुः विभाषा तृतीयादिषु अचि इति सूत्रक्रमः द प्रीवियस् सूत्र इमीडियट्लि फालोयिङ्ग् दिस् ऐ थिङ्क् देर् इस् mistake in the sutra number. This should be 97, I guess. It is not 67. Vibhasha tritiyadishvachi itot sarvanamasthane iti sutrat sarvanamasthane iti anuvartate sakhyura sambuddhau ityataha sambuddhau iti trijvat kroshtuhu ityatra इति पूर्णम् अनुवर्तते. सो जजत् क्रोष्टुः इस् 96, दिस् शुड् बि 97. सो त्रिज्वत् क्रोष्टुः त्रिज्वत् असम्बुद्धौ सर्वनामस्थाने, सोरि वेरि सोरि, असम्बुद्धौ एण्ड् सर्वनामस्थाने आर् नाट् being carried over here. It's only Trijvat Kroshtuhu which is being carried over. Trijvat Kroshtuhu ityeva anuvritti. Okay, forget these two sutpadas. Sarvanamasthane asambuddho iti Trijvat Kroshtuhu iti sutre anuvritti. In Trijvat Kroshtuhu we have this Sarvanamasthane and asambuddho. But for this, the present sutra Vibhasha Tatiya Adishmachi, only Trijvat Kroshtuhu ityaseva anuvritti. तेन किं भवति, क्रोष्टुः त्रिज्वत्. अगेन् द वर्ड् क्रोष्टु विल् बिहेव् लैक् अ त्रिजन्त. तृतीयादिषु तृतीया विभक्तेः आरभ्य, स्टार्टिङ्ग् फ्रम् तृतीया विभक्ति, अचि नाम अच् आदिः, अचि इति विशेषणं, सो इट् बिकम्स् अजादिः. अजादिषु प्रत्ययेषु, सो वेन् फालोड् बै अन् अजादि प्रत्यय स्टार्टिङ्ग् फ्रम् तृतीया, क्रोष्टुः त्रिज्वत्. द वर्ड् क्रोष्टु विल् बिकम् लैक् द त्रिजन्ता फार्म्. विभाषा आप्शनली. सो इन् सर्वनामस्थान त्रिज्वद्भाव इस् कम्पल्सरि, वेरस् इन् दिस् विभाषा तृतीयादिश्वचि द अतिदेश इस् आप्शनल्. सो दिस् त्रिज्वत् क्रोष्टुः इति विभाषा तृतीयादिश्वचि इति उभयम् अतिदेशसूत्रम्. वाट् इस् अन् अतिदेश? वेर् there is superimposing of some other property on this. Okay. So, Kroshtu is not Trijanta. Right? It is not Trijanta by itself, but it behaves like Trijanta, Trijvat. Wherever you have this Vat Pratyaya, the sutra is called an Atidesha Sutra. Trijvat Kroshtu Hutyana, Trijantasya Atideshatvam Kriyate, Atideshaha. So, sutram idam Atidesha Sutram. Okay. So, Ravichandran ji had a question here. I don't have the Balmanorama with me currently. Can you just read me what he says? I could maybe explain what he says about Atidesha. Okay. There are different kinds of Atidesha. What you're doing, what you said. I don't remember the karaka. You have a karyati desha, you have a shastrati desha. It goes on. There are different kinds where you are doing the atidesha. You can say that the karya is like the karya for something else. You can say the shastra will, this sutra will apply like for that sutra, and so on. Okay. Please read on. If you want me to explain the different types, I'll explain in the next class. I'll just have to look for examples. Okay. Sure. So if you want, it's just a different kinds of atidesha. Okay. Atidesha, if you look at it very minutely, it could be of different types. What exactly are you imposing here? Because atidesha is always you are imposing something else on this particular particle. Okay. So what is it that you are? Exactly. This is Tadatma, because this Kroshtu itself is getting the Atma of a Trijanta. I think this is Tadatma Atidesha. I still look at this and I'll explain this in the next class or through a meal. Yeah. Oh no, you just remember that is Atidesha Sutra. Sutras are of six kinds. Okay. संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशोऽधिकारश्च षड्विधं सूत्रमुच्यते. देयर आर सिक्स टाइप्स ऑफ सूत्रास एंड दीज टू सूत्रास फॉल अंडर द अतिदेश सूत्र. फोर्थः विभाषा तृतीयादिश्वचि अजादिषु तृतीयादिषु अजादिषु प्रत्ययेषु तृतीया विभक्तेः आरभ्य. दैट इज वाई वी डिड नॉट गेट दिस इन शस्. इवन दो शस् वाज अजादि, अस् इति अजादिः, तथापि तृतीयादिषु एव अस्य प्रवृत्तिः. अजादिषु तृतीयादिषु क्रोष्टुः वा त्रिज्वत् विकल्पेन त्रिज्वद्भावो भवति अस्य शब्दस्य. तेन किं भवति, क्रोष्टु आ इत्यस्ति त्रिज्वद्भावपक्षे, अर्थात विभाषा तृतीयादिषु चैतन्येन तृतीयद्भावे ऋकारान्तवद् भवति रोष्ट्र आ. सो वाट शुड हैपन नेक्स्ट रोष्ट्र आ घि संज्ञा भवति वा अत्र कैन वी हैव घि संज्ञा हियर शेषो घि सखी घिसंज्ञा भवति वा इवर्णान्तस्य उवर्णान्तस्यैव घिसंज्ञा सो शेषो घिसखि अनदीसंज्ञौ ह्रस्वौ यौ इवर्ण उवर्णौ हलो हेलो कैन यू हियर मी इंटरनेट गता है हेलो सत्र घिसंज्ञा न भवति अनदीसंज्ञौ ह्रस्वौ यौ इवर्ण उवर्णौ तदन्तं सखिवर्जं हिसंज्ञं स्यात् इत्यनेन इवर्णान्तस्य उवर्णान्तस्य च सो इफ ओन्ली इफ इट इज इकारान्त और उकारान्त देयर विल बी घि वन्स वी हैव डन त्रिज्वद्भाव ऋकारान्तत्वात् घिसंज्ञा न भवति सो घिसंज्ञायाः अभावात् नाभावोऽपि नास्ति देयर इज नो आङ्गो नास्तियां विल नॉट अप्लाई किं भवति तर्हि वाट शुड हैपन हियर देयर इज नो स्पेशल कार्य ओके जस्ट अ जनरल संधि कसंधि गुण कथम गुण आदिगुण अवर्णा अचिपरे गुण अवर्ण नास्त सन्धि इको यणचि इक अर्णा अचिपरे यण इक यण ऋकार से कह वर्ण रेफः इ उ ऋ लृ य व ऋ ल सो रेफादेशे क्रोष्ट्रा क्रोष्ट्र आ क्रोष्ट्रा इको एणचि इति सूत्रेण एणादेशः क्रोष्ट्रा इति एकं रूपं तृजद्भावे कृते क्रोष्ट्रा तदभावे किं भवति क्रोष्टु आ इत्यस्ति शेषोभ्यसखी इत्यनेन घिसंज्ञा भवति आङ्गोनास्त्र्याम् इति नाभावे क्रोष्टुना इति रूपं क्रोष्ट्रा क्रोष्टुना इत्युभयं साधु क्रोष्टुभ्यां वेन् यु कम् टु भ्यां सिन्स् इट् इस् नाट् एन् अजादि प्रत्यय इट् इस् विभाषा तृतीयादिषु अचि अजादि अजादौ प्रत्यये परे एव त्रिज्वद्भावः अत्र भ्यां प्रत्यये परे तु अजादित्वाभावात् त्रिज्वद्भावो नास्ति सो क्रोष्टुभ्याम् इत्येव क्रोष्ट्रा क्रोष्टुना क्रोष्टुभ्यां क्रोष्टुभिः अतः क्रोष्टु ङे चतुर्थैकवचने क्रोष्टु ए अयमप्यजादिः तस्मात् त्रिज्वद्भावः भवति त्रिज्वद्भावपक्षे तद् विभाषा तृतीयादिशोचि इति त्रिज्वद्भावे क्रोष्टृ ए अत्रापि इट्स् वेरि सिमिलर् इको एणचि इति एणादेशे क्रोष्ट्रे एणादेशः रेफः क्रोष्ट्रे तदभावे किं भवति सो त्रिज्वद्भावाभावपक्षे वेन् देर् इस् नो त्रिज्वद्भाव वाट् विल् हेपन् वाट् इस् द रूप एण्ड् वाट् इस् द प्रक्रिया हेम किं क्रो इति हलो हा क्रो वाट् इस् द रूप क्रोष्ट्वे और क्रोष्टवे ओके सूत्रं किं भवति प्रक्रिया भाई विच सूत्र हाँ बट एनादेश विल नॉट हैपन इफ यू हैव शंभु ए वी डू नॉट डू एनादेश Ukara following Ekara, generally it would be anadesha, but there is no end here. What would happen in this case? Ukaranta. If you had Shambhu A or if you had Hari A, Kim Bhavati Tatra? Huh? Right. So what? Why does it not apply here? Cross to A. धेर्गेति इति गुणः गुणे कृते क्रोष्टो ए इति भवति ततः अवादेशे क्रोष्टवे इति रूपम् सो क्रोष्ट्रे क्रोष्टवे क्रोष्टुभ्यां क्रोष्टुभ्यः क्रोष्टु ङसि अथवा ङस् प्रत्ययः अस् इति शिष्यते सो यः क्रोष्टु अस् कृत्वद्भावे कृते क्रोष्टृ अस् इति भवति अत्र वस्तुतः अत्रापि अनादेशस्य प्राप्तिः अस्ति वि शुड् लाजिकली गेट् यण् हियर् इट् शुड् बिकम् क्रोष्ट्रस् बट् दट् इस् नाट् द फार्म् विच् वि डिसैर् वाट् विल् बि द फार्म् आफ् अ ऋकारान्त इन् षष्ठी आर् पञ्चमी ऋकारान्तस्य कश्चन कस्यचन प्रातिपदिकस्य पञ्चम्येकवचने षष्ठी एकवचने वा किं रूपं भवति से पितृशब्दस्य किं रूपं षष्ठी एकवचने पितुः सो सिमिलर्लि दिस् शुड् बि क्रोष्टुः सो दर्कार इस् नाट् हर्ड् एट् आल् इट् शुड् बि क्रोष्टुः अतः किं भवति इति चेत् अन्यत् सूत्रमपेक्ष्यते क्रोष्टृ अस् इत्युक्ते ऋत उत् पदद्वयं ऋतः उत् एङः पदान्तादति इत्यतः अति इति अनुवर्तते नसिंहसोश्च इति सूत्रात् नसिंहसोः इति अनुवर्तते अमिपूर्वः इति सूत्रात् ओ सोरि नो पूर्व सेस् उत् ऋतः उत् फार् ऋकार यु गेट् उकार एस् द आदेश वेन् फालोड् बै द अत् अकार आफ् नसिंहसोः एण्ड् दिस् कम्स् अण्डर् एकः पूर्वपरयोः इत्यधिकारे भवति अतः ऋकारात् नसिंहसोरतिपरे सो वेन् ऋकार इस् फालोड् बै द अकार आफ् नसि एण्ड् नस् So when Rukara is followed by Ati, Akara of Nasi on Nas, Uttu, Ukara will be the Ekadesha. Rukara se Akara se sthane, Ukara ha Ekadesho bhavati. Okay. So this follows Nasingasoshcha. Nasingasoshcha ityatra, Pura Rupam Ekadesha ha bhavati, Atratu Ukara ha Ekadesha ha bhavati. Rukara Akara yoha sthane. ऋवर्णात् नसिंहसोरतिपरे उभयोः पूर्वपरयोः स्थाने उत् नाम उकारः ह्रस्व उकारः एकादेशो भवति सो रुदन्तात् नसिंहसोरतिपरे उकारः एकादेशः स्यात् रपरत्वम् उरण् रपरः उः अण् ऋकारस्य स्थाने यः अण् सः रपरस्सन्नेव प्रवर्तते इत्युक्तत्वात् क्रोष्टृ अस् इति स्थिते ऋकारस्य अकारस्य स्थाने उर् इति आदेशो भवति क्रोष्ट् ऋ अस् इत्यस्ति क्रोष्ट् उर् स् ऋकार अकारयोस्थाने उकारः एकादेशः उरण्डपरः इत्यनेन रपरः सो क्रोष्टुर् स् ततः किं भवेत् प्रश्नः क्रोष्टुर् स् इत्यस्ति एक्चुलि वाट् यु शुड् डू हियर् इस् संयोगान्तस्य लोपः आल्रेडि सीन् द सूत्रम् संयोगान्तं यत् पदं तदन्तस्य लोपः स्यात् इफ् दर् इस् एनी वर्ड् विच् एण्ड्स् इन् अ संयोगं देन् द लास्ट् लेटर् विल् गेट् डिलीटेड्
wherever it is. So kroshtur sitasti samastasya sutigantam padam itenena padasamya vidyate. This is a pada and there is a sanyoga halonantara sanyoga ajvihi avyavahitaha halaha sanyoga samyaha suhu. You have repha and you have sakara with no ach in between. So repha sakara yo sanyoga sanyogantasya lopaha itenena lopah karaniyaha. Actually there should be lopa by sanyogantasya lopa. But there is a special sutra which says Rat Sasya. Padadvayam Rat Sasya. Rat Namare Bhat Sasya. Sanyogantasya Lopaha. Iti anuvartate. Rephat Sanyogantasya Sasya Lopaha. So what the sutra tells, this immediately follows Sanyogantasya Lopaha. It says, following Repha, if there is a sakara, then it will get deleted. Okay. In sanyogantam yach padam, all that is there. So, if there is a pada, in which there is a repha, which is followed by a sakara, which is the case here. Right? Roshtu ur s, rephat sasya, rat sasya, sanyogasya. Sanyogante yadi repha, sanyoge yadi repha asti, tatsmat paratvena sakara, tasya lopo bhavati. So, rat sasya also tells, if there is Repha followed by a Sakara, the Sakara will get deleted. Okay. So we already have Sanyogantasya Lopaha. If I have a Sakara following Repha, it is a Sanyoga and it will get deleted. So why do we need Ratsasya? When we can apply Sanyogantasya Lopaha and delete the Sakara. Ratsasya is again telling something more specifically. It says Repha Sasya Lopaha Bhavati. Why? Why can't we just use Sanyogantasya Lopaha and delete the sakara? I mean, we can, but still Panini makes a sutra Ratsasya. So what is its significance? Why would Panini create a new sutra when already an old sutra could be used to achieve the same result? Exactly. So, it means that only Sakara after Repha is deleted and not any other letter. So, the Sanyoga can be with any letter. Right? So, after Repha there could be any number of letters which are there. Among these, if it is Sakara, then only there is deletion, and if it is any other word, there would not be deletion. Right? So, that is why Siddhe Sati Arabhyamano Vidhi Niyamaya Bhavati. So Ratsasya is a Niyama Sutra. Sanyogantasya Lopaha Ityanainaiva Lope Prapte Anena Niyamyate. Ko Niyamaha Rephat Parasya Sasyaiva Lopaha. If you are doing Sanyoganta Lopa, when Repha is a part of the Sanyoga, then only the Sakara which follows the Repha will be deleted and not any other letter. So the Sutrartha itself says Rephat Sanyogantasya Sasyaiva Lopaha. Sakarasyaiva lopaha na anyasya. So that nanyasya is not told in the sutra. Panini does not say ratsasya nanyasya. But by artha it is derived, because otherwise sanyogantasya lopaha ityanena lopaha kartum shakyaha. Tathapi siddhe sanyogantasya lopaha ityanenaiva lope siddhe ratsasya iti sutram arabhyate. Kimartham niyamartham. Kidrisho niyamaha Rephat Sanyogantasya Sasyaiva Lopo Bhavati Nanyasya. Atyatu Lopaha Bhavati Sakarayeva Vidyate Ityataha. You have Lopa. So which is correct? In any Niyama Sutra, there are two ways of deriving a Niyama. Okay, the Niyama which was this Siddhantita is Rephat Sakarasyaiva Lopaha na Anyasya Varnasya. The Niyama could also be Sakarasya Lopaschet Rephat Parasyaiva na Anyasya. It could also say the Sakara will be deleted only if Repha is the previous letter and not any other letter. That is a Viparita Niyama. Okay. So in all these cases, Vyakhyanato Vishesha Pratipatti. The commentary, what the Bhashyakara has discussed, what has been decided there, is what says. In all Niyama Sutras, Niyama can be in at least two ways. There are cases where Niyama can be in more than one way or more than two ways. But at least two kinds of niyamas can be made in all niyama sutra. Which is the correct niyama should be known from commentaries. Haan, Vasuji, you have a question? Haan. Sorry? Because, I mean, wherever, if the adesha has to be u, ukara, then you'll have only the u. One second. Okay. So you have kroshtru and a. The adesha we need is, I mean, not what we need, but what happens is ur. Because urandraparaha, uhu an, whenever there's an an, which is a, e, u, is an adesha for rukara. Wherever a, e or u replaces rukara, then it is always followed by repha, like we do in guna. You have deva, rishihi. The guna is actually akara, but it is rapara. So we do it as devarshihi. Similarly, here also, instead of u, the adesha will be ur. So for rukara, if the adesha is for r, it is always ar, ir and ur, because of uran raparaha. You cannot do these adeshas without the raparatva. Is it clear or was it your question something else? Hello? Hello? Is that clear? The uttadesha means u, but it has to be followed by the raparatva. Okay. Now, yes. So now we have u, ut is an u. A, e, u. If rukara is being replaced by anna, which is a, e, u. Here it is replaced by u, which is anna. The uhu in urandraparaha is not ukara. It is the shashti of rukara. Like kroshtra becomes kroshtuhu, ru becomes uhu. Hello. Srijvadbhava pakshe kroshtuhu iti rupam. Kroshtur su rutavut ityanena ukaradeshaha raparaha. So kroshtur su ratsasya ityanena sakarasya lope kroshtur. Rephasya kharasanayo risarjaniyaha ittanena visarge kroshtuhu. Sirupam. Jajvadbhava pakshe. Jajvadbhavasya abhave kim bhavati. Kroshtr kroshtu as ityasti. Gherniti iti gune kroshto as iti bhavati. Dani nasinga soshcha iti purvarupam. Kroshto as. Purvarupe krite ruttam visargaha. Kroshtohu. If it is ukaranta, then it becomes kroshtohu. If it is rukaranta, then it becomes kroshtuhu. Kroshtuhu, kroshtohu, kroshtubhyam, kroshtubhyaha. Again, kroshtuhu, kroshtohu. Kroshtu, os, ityasti. This is also again ajadi. Okay, so, ajado, vibhasha, tritiya, adishvachi, iti tijvad bhave. Kroshtru, os, iti bhavati. Iko enasi iti anadeshe kroshtros ruktam visargaha kroshtroho iti rupam. If you do sijvadbhava, then iko enasi. Tadabhave, yadi sijvadbhava na bhavati, tada kim bhavati, tasya bhave, ikoyanasi. Directly we do an adesha, so it becomes kroshtvoho. So kroshtroho, kroshtvoho. Iti upadvayam. Kroshtroho, kroshtvoho. Next is kroshtu am. Kroshtu am iti sthite. Again, this is adadi. So should we do vibhasha sati adishvachi? Should we do trijvad bhava or should we do nudagama? If we don't have trijvad bhava, what would happen is rasvanadhyapo nut ittinena nudagama. Right? So this is rasva. Rasvanadhyapo nut ittinena nudagama bhavedva. Trijvad kroshtuhu ittinena trijvad bhava bhavedva iti prashnaha. Now rasvanadhyapo nut is in the, it's also in the first father. It is 7154 or 55, and Trijvat Kroshtahu is 7196. So Vipratishedhe Param Karyam Ityanena Vastutaha Trijvat Bhava Bhavet. Actually we should get Trijvat Bhava here, because Trijvat Kroshtahu is a Parasutra. Tasvanadhyakonote iti Purva Sutram, Trijvat Kroshtahu iti Parasutram. Tasma Trijvat Kroshtahu iti Trijvat Bhava eva Bhavet. Kintu Ami paratvat trijvadbhave prapte. So, trijvadbhave prapte. Numatira trijvadbhave bhyo nut purva vipratishedhena. Iti vartikam. So, there is a vartika which says, num achira trijvadbhave bhyaha nut purva vipratishedhena. The general vipratishedha which we have is a para vipratishedha. Vipratishedha param karyam. Okay. Kintu కానిచన కార్యాణి సంతి యత్ర పూర్వ విప్రతిషేధః యత్ర విప్రతిషేధః తత్ర పూర్వస్య ప్రవృత్తిః భవతి. వెరెవర్ దేర్ ఇస్ విప్రతిషేధ దేర్ ఆర్ సమ్ కేసెస్ వేర్ ద పూర్వ విల్ అప్లై. సో సచ్ కేసెస్ హీ లిస్ట్స్ అవుట్ నుమ్ అచిర త్రిజ్వద్ భావేభ్యః నుట్. సో వెన్ ఎవర్ దెర్ ఇస్ అ క్లాష్ బిట్వీన్ ఎనీ ఆఫ్ దీస్ నుమ్, ఇట్ ఇస్ అ నుమాగమ విచ్ విల్ సీ ఇన్ ద నపుంసకలింగ. There is a ikochi vibhakto and napumsakasya dhanasaha. This is a numagama. Achira rataha. This is another sutra. And trijvad bhava. It's a trijvad kroshtahu and vibhasha tati adishvachi. Num achira trijvad bhave bhyaha. When there is a clash between any of these and nut. Okay. Actually, all these are para. Okay. Nut comes earliest. After it, you have the numagama, the achira rataha and trijvad bhava. But whenever there is a clash, always it is nut which overrules. Purva vipratishedha. This is called purva vipratishedha. What is the pramana? Is Vartikakara stating it. Okay, so this is directly a Vartika which says, if there is a clash between nut and numagama, nut and achiraritaha, nut and rijvadbhava, then it is nut which will happen, which will overrule the other because of purva vipratishedha. Okay, so we do kroshtu nu am. Rasvanadhyapo nut ittinena nudagama. Once we do nudagama, there is no option for applying trijvadbhava, because this is not ajadi. Right? Vibhasha tatiyadishu achi. Ajadi prateye pareva trijvadbhava. Idanim ayam ajadihi nasti. Nakaraha. Haladihi asti. So we cannot apply trijvadbhava after we do nut. So kroshtu nam itiskate. Nami ittinena dirghe. Kroshtu nam. There is only one form in Aam, which is Kroshtuna. No two forms. Even if Aam is Ajadi, there is only one form, which is Kroshtuna. Okay. Now, Ni Prateya Pare, Kroshtu Ni Ittasti, Trijvadbhava Pakshe, Kroshtru I. Vibhashatati Adishvachi Ittinena Trijvadbhava, Kroshtru I Ittasti. Itanim, sutra which we already studied, Ruto Ni Sarvanamasthanayohu. The guna which we did is not only for Sarvanamasthana, it is also for Ni Pratyaya Pare. Ni Sarvanamasthanayohu Pare Pridantangasya Gunaha. Guna again Uran Raparaha Ittinena Raparatma Api Bhavati. We have both guna and raparatva, so it becomes Kroshtar I, Kroshtari, Dhatari, Pitari, Matari. All Rakarantas are like this. Trijvadbhava Pakshe Kroshtari. So Tatabhave, when we have the usual Kroshtu I, Achaghehe Ittinena Ikarasya Ukaradeshaha, Ukarasya Akaradeshaha. Kroshta Au वृद्धिरेचि इति वृद्धौ क्रोष्टौ सो क्रोष्टरि क्रोष्टौ क्रोष्ट्रोः क्रोष्ट्वोः क्रोष्टिषु तत्र तु एकमेव सुप्रत्यये परे ऋजुद्भावः नास्ति अचारित्वाभावात् क्रोष्टुषु आदेशप्रत्ययोः इति षत्वे क्रोष्टिषु पक्षे हलादौ च शम्भुवत् पक्षे विच् मीन्स् इन् अदर् केस् वेन् देर् इस् नो ऋजुद्भावः हलादौ एण्ड् वेन् फालोड् बै हलादि द वर्ड् क्रोष्टु शम्भुवत् इट् बिहेव्स् लैक् शम्भुशब्द सोकारान्तःपुल्लिङ्गः क्रोष्टुशब्दः सो वट् एवर् इस् मार्क्ड् इन् रेड् इस् वेर् देर् इस् ऋज्वद्भाव इन् द फस्ट् फैव् ऋज्वत्क्रोष्टुः इत्यनेन नित्यं ऋज्वद्भावः ततः परं विभाषातृतीयादिष्वचि इत्यनेन अजादिषु प्रत्ययेषु परेषु विकल्पेन ऋज्वद्भावः ओके सो all these are cases where there is either yan or there is rutaut or there is rutongi sarvanamasthanayoh etc so in other cases it pakshe haladau so pakshe where there is no trijvadbhava or if it is a haladi pratyaya the forms are like shambhu shabda so that is ukaranta there's only two the general thing is shambhu all ukaranta pullingas are like shambhu shabda The only exception is Kroftu, where there is Trijvadbhava. Okay. Any questions? Okay. Tarhi Shvaha Pashyavaha. Enakshara-samam Nayanadhyamha-maheshwarat Pritsnamyakaranam Pruktam Tasmai Paninaye Namaha. मुनित्रयं नमस्कृत्य उदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते कान्टेक्ट् इस् नीड् युवर् किस किस आंसर के कारण ओके किस आंतरिक के कारण ओके सो वी डोंट नो व्हाट ही मीन्स बाय द क्वेश्चन आई ट्राई टू लुक इट अप एंड आई टेल यू tell me then. You have Bala Manorama? Oh, that's great. Oh yes, please do. Another thing. Oh, great. Exactly. I understand the point. Okay. Sure. So, this is all a very Vishishta Prayoga. I mean, it should be a natural question. If you have a separate Kroshtu and a Kroshtra Shabda, why do so much? As I told in the last class, there are some cases where only Rikarantasya Prayoga has shuyata. Sarvanamasthaneshu, there is only Rikaranta which is Prayoga. Prayoga Rikarantasya Rupameva shuyata. Kvachit Ukarantasya Rupameva shuyata. Kvachit Ubhe Rupe shuyata. Right. So, to adjust all that he had to make. So, is he to want?